अथैकचत्वारिंशः सर्गः। स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया तस्माद्देशादपाक्रम्य चिन्तयामास वानरः। अल्पशेषमिदम् कार्यम् दृष्टेयमसि ते क्षणा, त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते। न सामरक्षः सुगुणाय कल्पते, न दानमर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः, पराक्रमस्त्वेषममेह रोचते। न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते। हतप्रवीराश्चरणे तु राक्षसा कथञ्चिदीयुर्यदिहाद्यमार्दवम्। कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्, पूर्वकार्याविरोधेन सकार्यम् कर्तुमर्हति। न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः, यो ह्यर्थम् बहुधा वेद स समर्थोऽर्थसाधने। इहैव तावत्कृतनिश्चयो ह्यहम् रजेयमद्य प्लवगेश्वरालयम्। परात्मसम्मर्दविशेषतत्त्ववित्ततः कृतम् स्यान्मम भर्तृशासनम्। कथम् नु खल्वद्य भवेत् सुखागतम् प्रसह्य युद्धम् मम राक्षसैः सह। तथैव खल्वात्मबलम् च सारवत्समानयेन्माम् चरणे दशाननः। ततः समासाद्य रणे दशाननम् समन्त्रिवर्गम् सबलम् सयायिनम्। हृदि स्थितम् तस्य मतम् बलम् च सुखेन मत्वाहमितः पुनर्व्रजे। इदमस्य नृशंसस्य नन्दनोपममुत्तमम्, मनम् नेत्रमनःकान्तम् नानाद्रुमलतायुतम्। इदम् विध्वंसयिष्यामि शुष्कम् वनमिवानलः, अस्मिन् भग्ने ततः कोमम् करिष्यति स रावणः। ततो महत्साश्वमहारथद्विपम् बलम् समानेष्यति राक्षसाधिपः। त्रिशूलकालाय स पट्टिशायुधम् ततो महद्युद्धमिदम् भविष्यति। अहम् च तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरभङ्गविक्रमः। निहत्य तद्रावणचोदितम् बलम् सुखम् गमिष्यामि हरीश्वरालयम्। ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः, ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत। ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम्, मत्तद्विजसमाघुष्टम् नानाद्रुमलतायुतम्। तद्वनम् मथितैर्वृक्षैर्भिन्नैश्च सलिलाशैः, चूर्णितैः पर्वताग्रैश्च बभूवा प्रियदर्शनम्। नानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः, ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः। न बभौ तद्वनम् तत्र दावानलहतम् यथा, व्याकुलावरणारेजुर्विह्वला इव तालताः। लतागृहैश्चित्रगृहैश्च सादितैर्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः, शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपम् तदभून्महद्वनम्। सा विह्वला शोकलता प्रताना, वनस्थली शोकलता प्रताना। जाता दशास्य प्रमदा वनस्य, कपेर्बलाद्धिप्रमदा वनस्य। ततः स कृत्वा जगतीपतेर्महान् महव्यलीकम् मनसो महात्मनः। युयुत्सुरेको बहुभिर्महाबलैः श्रियाज्ज्वलम् स्तोरणमाश्रितः कपिः। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः।